ततो युद्ध परिश्रान्तम् समरे चिन्तया स्थितम् रावणम् चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् उपगम्याब्रवीद्रामम् अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यम् सनातनम् येन सर्वानरीं वत्स समरे विजयिष्यसि। आदित्य हृदयम् पुण्यम् सर्वशत्रुविनाशनम् जयावहम् जपे नित्यम् अक्षय्यम् परमम् शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तम् समुद्यन्तम् देवासुरनमस्कृतम् पूजयस्व विवस्वन्तम् भास्करम् भुवनेश्वरम्। सर्वदेवात्मकोह्येषः तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पाति गभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदकालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्याः ह्यश्विनो मरुतो मरुः वायुर्वह्निः प्रजा प्राणः ऋतुकर्ता प्रभाकरः। आदित्यसविता सूर्यः खगपूषागभक्तिमान् सुवर्णसदृशो भानुः स्वर्णरेतादिवाकरः हरिदश्वसहस्रार्तिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुः स्वष्टामार्ताण्ड अंशुमान् हिरण्यगर्भः शिशिरः तपनो भास्करो रविः अग्निगर्भोदिते पुत्रः शङ्खः शिशिरनाशनः। व्योमनातस्तमो भेदी हृद्यजुत्सानपारगः घनवृष्टिरपां मित्रो विन्ध्यवीथी त्ववङ्गमः आतपी मण्डली मृत्युः पिङ्गलसर्वतापनः कविर्विश्वो महातेज रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते। नमः पूर्वाय गिरये पश्चिमायद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः नम उग्राय वीराय सारंगाय नमो नमः नमः पद्मप्रबोधाय मार्तांडाय नमो नमः। ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः तप्तचामीकराभाय वह्नये विश्वकर्मणे नमस्तमोभिनिघ्नाय रवये लोकसाक्षिणे। नाशयत्येष वैभूतं तदेव सृजति प्रभुः पायत्येष तपस्येष वर्षत्येष गभस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणा वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविप्रभुः। एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषकश्चित् नावसीदति राघव पूजदस्वैनमेकाग्रो देवदेवं जगत्पतिम् एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि। अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि। एवमुक्त्वा तथागत्यो जगाम च यथागतम्। एतश्रुत्वा महातेज नष्टशोकोऽभवत्तदा धारयामास सुप्रीतो राघवप्रयतात्मवान् आदित्यं प्रेक्ष्व दत्त्वा तु परं हर्षमवाप्तवान् त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यमान् रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वधे तस्य धृतोऽभवद्। अथ रविरवदन् निरीक्ष्य रामम् मुदितमनाः परमम् प्रहृष्यमाणः నిశిచరపతి సంక్షయం విదిత్వా సురగణమధ్యకతో వచత్వరేతి.